Adam.
सर्वधर्मस्काराः अद्य सिद्धान्तकौमुद्याः अजन्तस्त्रीलिङ्गप्रकरणे नवमः पाठः जून् मासस्य त्रयोदशः दिनाङ्कः केनाक्षरसमां नायमधिगम्यमहेश्वरात्सनं व्याकरणं प्रोक्तं तस्मै पाणिनीये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते. ईकारान्तस्त्रीलिङ्गेषु स्मः किल ईकारान्तस्त्रीलिङ्गेषु त्रेधा विभागः वेरि ओयिङ्ग् वेरि इट् इस् नाट् ओन्लि त्री बट् ब्राड्लि वि केन् डिवैड् इन् टु त्री केटगरीस् यत्र ञन्ताः भवन्ति अर्थात् नीत् नीष् नीन् इति स्त्रीप्रत्ययान्ताः शब्दाः भवन्ति. तत्र किं भवति यथा गौरीशब्दः ईकारान्तः साधारणः शब्दः गौरीशब्दः तत्र किं भवति हल्याभ्यो दीर्घस्थितिस्य कृत्वं हलु इत्यनेन सुलोपः भवति अत एव गौरी इति स्थिते गौरी इत्यत्र सोः लोपः. अनन्तरं यूस्त्राख्यौ नदी ईकार उकारान्तानां नित्यस्त्रीलिङ्गानां नदी इति संज्ञा विद्यते. नदीसंज्ञायाः सत्त्वात् तत्प्रयुक्तानि कार्याणि भवन्ति यथा सम्बुद्धिह्रस्वः अम्बार्थनद्योर्ह्रस्वः इत्यनेन सम्बुद्धौ परतः ह्रस्वे हे गौरि भवति. नितां प्रत्ययानाम् आट् इति आगमः आण्नद्याः इति सूत्रेण गौर्यै गौर्याः इत्यत्र सर्वत्र भवति. आं प्रत्ययस्य षष्ठी बहुवचने आं प्रत्ययस्य नुट् इति आगमः भवति गौरीणां. ङेः सप्तम्येकवचनप्रत्ययस्य आम् इति आदेशो भवति ङेरां नद्यां नीभ्यः इति सूत्रेण गौर्याम् इति रूपम्. दीस् आर् द कार्यास् विच् आर् विच् वुड् अकर् फार् ञन्तस्. नौ इफ् अ वर्ड् हेपन्स् टु बि ईकारान्तस्त्रीलिङ्ग बट् इट् इस् नाट् अ ञन्त. फार् एक्साम्पल् औणादिक ई प्रत्ययान्ताः शब्दाः सन्ति यथा लक्ष्मीशब्दः लक्षधातोः ई प्रत्यये मुडागमे लक्ष्मीशब्दः निष्पन्नः ञन्तः नास्ति. दिस् इस् नाट् ञन्त. सो वाट् विल् हेपन् इफ् यु जस्ट् लुक् एट् दिस् सेम् वेर् एवर् ञन्त इस् द निमित्त दट् कार्य वुड् नाट् हेपन्. दट् इस् वै अङ्यन्तत्वात् न सुलोपः. प्रथमाविभक्तवेकवचने हेल् लक्ष्मीः इत्येव रूपं न तु लक्ष्मी इति. सोः लोपो न भवति ससजुषोरुः इति उक्तं खरवसानयो विसर्जनीयः. लक्ष्मीः लक्ष्म्यौ लक्ष्मः. अन्यानि कार्याणि तु भवन्ति. इट् विल् हेव् नदीसंज्ञा बिकास् इट् इस् स्टिल् ईकारान्त एण्ड् स्टिल् नित्यस्त्रीलिङ्ग. सो नदीत्वप्रयुक्तानि कार्याणि भवन्त्येव सुलोपो न भवति. सो दर् इस् ओन्लि वन् डिफ्रेन्स् इफ् अ वर्ड् हेपन्स् टु बि ञन्त एण्ड् नाट् ञन्त. इट् इस् ञन्त दर् इस् सुलोप. इफ् इट् इस् नाट् ञन्त दर् इस् नो सुलोप. सो तदनन्तरं स्त्रीशब्दः अधीतः. स्त्रीशब्दः ञन्तः इट् इस् ञन्त. सो इट् विल् हेव् हल्ज्ञानिना सुलोपोऽपि भवति नदीत्वप्रयुक्तानि कार्याण्यपि भवन्ति. अन्यः विशेषः दृष्टः अजादिषु प्रत्ययेषु परेषु स्त्रियाः इति सूत्रेण इयङादेशो भवति. इफ् यु सी गौरी यु हेड् गौरी गौर्यौ गौर्यः सर्वत्र इको एणसि इति यणादेशः कृतः. अत्र तु अजादिषु प्रत्ययेषु परेषु स्त्रियाः इति विशेषेण सूत्रेण इयङ् इति आदेशो भवति स्त्रीशब्दस्य. ईकारस्य स्थाने इय इति आदेशः. तेन स्त्री औ इत्युक्ते स्त्रियौ स्त्री अस् स्त्रियस् इत्यादीनि रूपाणि. अम्प्रत्यये शस्प्रत्यये च परे वांशसोः इत्यनेन विकल्पेन इयङ् भवति. अत एव स्त्री अम् इति स्थिते इयङि कृते स्त्रियम् इति रूपम्. इयङः अभावे अमिपूर्वः इत्यनेन पूर्वरूपे कृते स्त्रीम्. गौरीशब्दे तु केवलं गौरीम् अमिपूर्वः इत्येव भवति. अत्र तु उभयं यङ् भवति यङ्भावपक्षे पूर्वरूपमपि. तेन स्त्रियं स्त्रीम् एवमेव शशि स्त्रियः स्त्रीः इति रूपद्वयं. सो दट् इस् द स्पेशल् फार् स्त्रीशब्द ओन्लि. इट् हस् बिन् मेण्डेटेड् स्पेसिफिकलि फार् स्त्रीशब्द वेन् इट् इस् फालोड् बै एन् अजादि प्रत्यय. Now, the question is, if it is just Stree Shabda, or if Stree Shabda is Pradhana, that is in a Samasa where Stree Shabda gets Pradhana, then the rupa will be like this, what we saw last class as the rupas for stri shabda. Upasarjanatve kim bhavati iti prashna. There has been this iyam which has been told specifically for stri shabda. When stri shabda is upasarjana, that is when it is part of a samasa, and when it is not pradhana, that is when it is gauna or upasarjana, will it still get iyam is the question. The only question is about iyam, not about any other forms. Okay. Haladishu vibhaktishu, there is no difference. It will be like a normal shabda. The question is, will it have iyam? If stri shabda is at the end of a samasa and it is upasarjana, iyam bhavativa nava iti prashnaha. Tatrapi upasarjanatve, there are three options possible. Okay. Whenever a word becomes an upasarjana, the original linga is lost. Stri shabdaha, stri lingaha, satyam. Kintu upasarjanatvetu pullingopi bhavitum arhati stri lingam napumsaka lingam. Whenever the word is upasarjana, the compound could be stri linga, pullinga or napumsaka linga. So what will happen in each of these cases is what Dikshitar examines. Adau pullinge katham bhavati iti prashnaha. Striyam atikrantaha ityasti. Pradi samasaha yatra stri shabdasya upasarjanatvam asti. Striyam atikrantaha ati stri itiskrate gostriyo upasarjanasya ityanena stri ityatra ikarasya hasvekrate ikarantam pratipadikam. So atistri iti ikarantaha pullingaha atistri shabdaha. So why are we going into pullingas in the midst of the adanta strilinga prakarana is because it has stri at the end. Okay. So now atistri iti ikarantaha pullingaha. Okay. So now if it is an ikaranta pullinga, the template, that is the sadharana shabda, would be hari shabda. So it should, in the absence of any vishishta karya, it should go like hari shabda. What happens now? Because it is stri shabda, is there any difference? Is the question. So, eka karika vidyate kaumudyam datta, guna nabhava utpanubhihi paratvat kumsi badhyate, klive numaja stri shabdasya iyangityavadhavyatam. So, the karika sums up what are the differences in pullinga and napumsakalinga when stri shabda is an upasarjana. Where do we find iyang? Okay. It says, pumsi pullinge guna nabhava autva nubhihi stri shabdasya iyang badhyate iti anvayaha. Anvaya is pumsi nama pullinge guna nabhava autva nubhihi etaihi karyaihi स्त्री शब्दस्य इयं स्त्री शब्दस्य यः विहितः इयं आदेशः सः बाध्यते इट इज ओवर रूल्ड बाय दीस फोर गुणः नामकः इत्येते जसि च इत्यनेन जसि परे ह्रस्वस्य गुणः विहितः हरि अस् इत्येते हरे अस् अयादेशे हरयस् हरयः ह्रस्वस्य गुणः इत्यनेन सम्बुद्धौ परतः गुणः विहितः हरि सु इत्येते हे हरे सु सोहो एं ह्रस्वात् समुदे हेतेने लोपे हे हरे रूपम् घेर् नीति इत्यपि नीति परे झि सम्यकस्य गुणो भवति हरि ए इत्युक्ते घेर् नीति इति गुणे हरे ए अयादेशे हरये. सो दीस् आर् द त्री सूत्रास् विच् गिव् गुण अमोङ्ग् दिस् ह्रस्वस्य गुणः डस् नाट् माटर् हियर् बिकास् सम्बुद्धि इस् नाट् एन् अजादि प्रत्यय देर्फोर् देर् इस् नो पासिबिलिटि आफ़् इयङ् Therefore, it will not apply. For Jasicha and Kher Niti, when there is a clash between Jasicha and Striyaha or Kher Niti and Striyaha, now you have Atistri As, that is Jas, Atistri As it is prepared. Striyaha ityanena iyamadesha karaniyova, Jasicha ityanena gunah karaniyova iti prashne sati, paratvat, because Jasicha is the latter sutra. Jasicha, as you can see, is 73109, whereas Striyaha is 6169 or something. It is in the Shashtadhyaya, whereas Jasicha is in the Saptamadhyaya. Therefore, Jasicha overrules Striyaha and the guna will happen. There is no iyam, which means the rupa is still like Hari Shabda. There is no difference, no iyam. Similarly, in Nit, whenever the pratyayas are Nit, Gher Niti will overrule iyam and there is iyam will not apply. Okay, so, this is about guna. नाभावः नाम आङ्गो नास्त्रियां संयोगात् परस्य टा प्रत्ययस्य न इति आदेशो भवति. हरि अ तिष्ठते नाभावे कृते हरि नत्वे कृते हरिणा इति रूपम्. सो नाभाव अगेन् इस् इन् द सप्तमाध्याय, देयरफोर् इट् आल्सो ओवर्रूल्स् क्रियाः अणीयङ् विल् नाट् हेपन्. औत्वं नाम अचघेः सप्तम्येकवचने धिसंज्ञकात् परस्य ङेः औत् स्यात् प्रकृतेः अन्तादेशश्च अकारः इति उच्यते. सो हरि इ तिष्ठते इकारस्य औकारादेशः, प्रकृतेः अकारादेशः यः हर औ वृद्धौ हरौ इति रूपं, हरौ हर्योः हरिषु. सो औत्वमपि सप्तमाध्याये अस्ति, परत्वात् इयङं बाधते. नुट् नुडागमः ह्रस्वनद्यापो नुट् इत्यनेन भीतः. हरि आम् इत्युक्ते नुडागमे नामीति दीर्घे णत्वे हरीणाम् इति भवति. सो नुडागमोऽपि परः. सो इन् आल् दीस् केसस् हि सेस् सिन्स् दीस् सूत्रास् आर् पर गुणनाभाव उत्तनुद्भिः परत्वात् पुंसि बाध्यते, इयङ् इस् ओवर् रूल्ड् बै दीस्, विच् मीन्स् दट् इयङ् विल् नाट् हेपन् इन् आल् दीस् केसस्. सो वेर् विल् इयङ् अकर् इस् द क्वश्चन् नौ. सो एतानि कार्याणि इयङं बाधन्ते इत्युक्ते, सो नौ यु हेव् टु सी वाट् हेपन्स् टु अति स्त्री शब्द. एस् ऐ आलरेडी सेड् इन् हलादि प्रत्ययेषु परेषु प्रश्नः नास्ति, देर् इस् नो क्वश्चन्. इफ् द प्रत्यय इस् हलादि, इट् हेस् टु बी लैक् द ओरिजिनल् टेम्प्लेट् विच् इस् लैक् हरि शब्द. अजादिषु प्रत्ययेषु इयङ् भवति वा न वा इति विचारे, सो यु केन् नौ सी अ लिस्ट् आफ् अजादि प्रत्यय अण्ड् सी वेदर् इयङ् विल् हेपन् आर् नाट्. यु हेव् औ, वाट् इस् औ? हरि औ इति स्थिते प्रथमयोः पूर्वसवर्णदीर्घः इत्यनेन पूर्वसवर्णदीर्घे कृते हरि इति रूपं, रैट्? नौ यु हेव् अ क्लाश् बिट्वीन् प्रथमयोः पूर्वसवर्णः अण्ड् स्त्रियाः. स्त्रियाः इस् अ स्पेसिफिक् सूत्र, विशेषविहितत्वात् इयङादेशो भवति. ओके, सो वि हेव् इयङ् हियर् अतिस्त्री, अतिस्त्रि औ इति स्थिते इयङादेशे अतिस्त्रियौ. सो दिस् इस् वन् केस् वेर् इयङ् विल् हेपन्. अस् जस् प्रत्यये तु अतिस्त्रयः, यथा हरयः तथा अतिस्त्रयः. जसि च इत्यनेन गुणः यङं बाधते. वाट् हेपन्स् इन् अम्? सु औ जस् अम्? अम् इस् वा अंशसोः इत्यनेन विकल्पेन इयङादेशो भवति. इयङादेशे कृते अतिस्त्रियं, तदभावे अतिस्त्रिं. हरिम् इतिवत् अमिपूर्वः इत्यनेन पूर्वरूपे अतिस्त्रिम् इति भवति. शसिपरे पुनः वांशसोः इत्यनेन विकल्पेन इयम् अतिस्त्रियः अथवा अतिस्त्रीन्, यथा हरीन् तथा अतिस्त्रीन् इति भवति. टा प्रत्यये आल्रेडी थाट् नाभाव विल् ओवर् रूल् इयम्. सो यु हेव् आङ्गोनास्त्रिया फोलोड् बै नत्वा, सो इट् बिकम्स् अतिस्त्रिणा लैक् हरिणा. ङे प्रत्यये अयं ङित्, तस्मात् घेर् ङिति इत्यनेन गुणे मयादेशे अतिस्त्रये लैक् हरये. वेरेवर् देर् इस् नो इयङ् द फार्म् विल् बि लैक् हरिशब्द. सो नसिंहसोः परतः अपि घेर्ङिति इति गुणः नसिंहसोश्च इति पूर्वरूपम्, अगेन् यः अतिस्त्रेः. ओस् प्रत्यये परे यु हेव् नस् ओस् आम्, ओस् इस् आल्सो अजादि, तत्र तु इयङ् भवति. देर् इस् नथिङ्ग् टु ओवर् रूल् इयङ्. अतिस्त्री ओस् इयङादेशे कृते अतिस्त्रियोस् वृत्तविसर्गयोः अतिस्त्रियोः. आम् आमि ह्रस्वनद्यापो नुट् इति नुटा बाध्यते. सो अतिस्त्रीणां यथा हरीणां तथा अतिस्त्रीणां. सप्तम्येकवचने नि ई प्रत्ययः अच्चघेः इत्यनेन औत्वं भवति अतिस्त्रौ. सो यु नोटिस् दीस् आर् आल् द अजादि प्रत्ययस्. इट् इस् अ कम्प्लीट् लिस्ट् आफ़् अजादि प्रत्ययस्. इन् दीस् इन् मेनी केसस् इट् इस् ओवर् रूल्ड् गुण नाभाव औत्व लुड्भिः परत्वात् पुंसि बाध्यते. सो देर् इस् नो इयम्. इयम् एक्चुलि अकर्स् ओन्ली इन् फोर् प्लेसस्. वन् इस् औ, वन् इस् ओस् वेर् देर् इस् नित्य इयम्, एण्ड् इन् अम् एण्ड् शस् वेर् देर् इस् एन् आप्शनल् इयम्. सो इफ् यु लुक् एट् द शब्द, सो दट् इस् वै द कारिका सेस् अनदर् कारिका ओसि ओकारे च, सारि दिस् इस् ओसि औकारे च नित्यं स्यात् अंशसोस्तु विभाषया यादेशः असि नान्यत्र स्त्रियाः पुंसि उपसर्जने. ओसि औकारे च वेन् फालोड् बै ओस् एण्ड् वेन् फालोड् बै औ नित्यं स्यात्. यङ् इस् कम्पल्सरि. amshasostu vibhashaya. And followed by am and shas, there is an optional el. Yadeshaha achi. Namajadu prateye parataha. Yadeshaha bhavati. Na anyatra. Anyeshu ajadishu prateyeshu parataha. Na bhavati. Striyaha. Stri shabdasya. Pumsi upasarjane. Upasarjanatve pullinge. Osi okare nityam bhavati. Amshasoho vibhashaya bhavati. Okay. Now there is a question by Priya. Okay. So she says, when you have Atistri A etc. For Nye etc. Naditvam is still there by Prathamalinga Grahanamcha. So do we not get Adagama by Annadhyaha? That's the question. You have Atistri A. As we saw in Kumari, there was an article which said Prathamalinga Grahanamcha. By which we said, even though Kumari is Pullinga, by not the original Kumari Shabda, what we studied in Ikarantha Pullingas, even though it is Pullinga now, Prathamalinga Grahanamsa Ektanena Nadi Samya Bhavati, Nadi Samyayaha Satve, Taprayaktani Karyanyapi Bhavanti, iti uttam. Satyam, Prathama Linga Grahanam, itra use Triakhyo Nadi, ityatra Niyamadvayam Vidyate, Ikarantha Ukarantham Bhavet, Nitya Strilinga Api Bhavet. Strilinga vishaye prathama linga grahanam asti. Kintu idu dantatvam swayam bhavet. It has to be dirgha ikaranta or dirgha ukaranta by itself. Then only it gets nadi samya. Here it is not ikaranta, it is only hraswa ikaranta. Right? Since it is hraswa ikaranta, it will not get nadi samya by itself. Any other questions? About Atistri in Pullinga. Okay. So now, Yarantaha Pullingaha Atistri Shabdaha Kim Bhavati. Only Osija Striyaha Iti Niyam Bhavati. So what you see in Au, even though it is only one Pratyaya, it is seen in three Rupas. And in Os, there is Iyang by Striyaha. Ami Shasi cha Vam Shasoha Vikalpena Vikalpena Iyang Bhavati. Shesham Hari Shabdavati. All other forms will be like Hari Shabda. Whatever will happen for Hari will happen. That is all. Idani, as we saw, Tri Shabdasya Upasarjane Atis Tri Shabdaha Trishulingeshu Vartate Pullingepi, Trilingepi, Napumsakalingepi. Napumsakalinge Yada Atis Tri Shabdaha Vidyate Tada Kim Bhavati Iti Prashnah. Striyam Atikrantam Kulam Iti Napumsakalinga Dyotanartham Eva. Striyam Atikrantam Ityasti Chedapi Ikarantam Ha Napumsakalingaha Atis Tri Shabdaha. Now, for Ikaranta Napumsakalingas, the standard Shabda or the template would be Vari Shabda. We have not yet gone into Napumsakalingas, but the standard form is Vari Shabda. We will have Vari Varini Varini, Vari Varini Varini, Varina Varibhyam Varipihi, ityadini Rupani. Now, what does Karika say? Gunanabhava Uttanudhihi Paratvat Umsi Badhyate Klibe Numacha in Kliba, which means in Napumsakalinga, Numa Gamena Stri Shabdasya Iyang Badhyate. Iyang is overruled by Num in Napumsakalinga. There is only one Karya which overrules Iyang in Napumsakalinga, which is Num. Okay. But the interesting thing is, in Napumsakalinga, Napumsakalinge Ajadav Vibhaktav Ikochi Vibhaktav Ityanena Numadeshaha Vihitah. So Paratvat, again Ikochi Vibhaktav Iti Numagamaha Saptamadhyaye Vidyate. Paratvat Kriyaha Iti Sutram Vamshasoho Iti Sutram Api Iyang Num Badhyate. The interesting thing here is, for Ikochi Vibhaktav also the Nimitta is Ajadav Vibhaktav, Ajadi Vibhakti. Striyaha ityasya api ajadi vibhakti, which means their range is completely overlapping with each other. You saw jasi cha, dher niti etc. Their things were smaller, but here it is completely in ajadi vibhakti For Stri Shabda it is Iyang. For Napumsakalinga it is Num. This is what it says. And they say Num overrules Iyang, which means Iyang has no chance. Right? In Napumsakalinga everywhere Num overrules Iyang, which means the word should be entirely like a Napumsakalinga word with no Iyang. Okay? So that should be the case. But there is a catch here. So Prathama Vibhakto, Dvitiya Vibhakto, Yatha Vari Varini Varini, Tatha Atistri Atistrini Atistrini. Whatever the Nakara you hear in these Napumsakalinga words is always this Numagama. Nakaragama Bhavati, Tasya Natve. You have Na. Okay, wherever you hear Na in Napumsakalinga, in such words, it is always Numagama. So Atistri Atistrini Atistrini Istyadi Varivati. So the word will entirely go like an Ikaranta Napumsakalinga word with no chance for Yang. But there is a thing here. Ye Prabhutau Ajadau Vakshamana Pumbadhava Pakshe Pragvad Rupam. For Napumsakalinga, there is an interesting thing which happens. Tritiyadishu Bhashita Pumskam Pumbad Galavasya. It is Sutramasti. All these sutras we will study later in the Napumsakalinga Prakarana. We will just giving it here because it is referred to by the scholar. Vakshamana Pumbadhavaha. Pumbadhavaha Nama Etadeva. Pumbat. Tritiyadishu. Starting from Tritiyadhakti, Bhashita Pumskam. Bhashita Pumskam, we will see the technical definition later. It just means if a word is in both Pullinga and Napumsakalinga. Certain words, for example, the same word, Atistri, which are present in both Pullinga and Napumsakalinga. For such words, Tritiyadishu. From Tritiya Vibhakti, Pumbat, there will be one form like the Pullinga form. Even though when we are doing Napumsakalinga, when the word is in Napumsakalinga, there is one form like Napumsakalinga, which is with Numagama, correct. But from Tritiya Vibhakti, there is also an additional form like the Pullinga word. This is true for all words which are in both Pullinga and Napumsakalinga. So if there is a word which is in both Pullinga and Napumsakalinga, in Napumsakalinga, from Tritiya Vibhakti onwards, it will have one additional form like the Pullinga form. So now for this Atistri Shabda, since it is in Pullinga, Tritiya Adishu, from Tritiya Vibhakti, it will be have one form like Pullinga, which means Pragvati Rupam. Like the Pullinga Atistri word, you would have one form. So Atistraye, Atistri E Atistri, Pullingatma Pakshe, Pumbadbhava Pakshe. If you are taking Pumbadbhava, there is Kherniti iti Gunaha. So you have Atistre E, Atistraye iti Bhavate. Napumsakalinge tu Atistri E iti Sthite, Numagame, Ranatve, Atistrine. So there are two forms. Atistrehe, Atistrinaha. Harehe, like Harehe, it is the Pumbadbhava Paksha. In Napumsakalinga, it is Atistrinaha. Atistriyaha, Atistriyoho, Atistrinoho, ityadi. So in os, in Pullinga there is iyang and in Napumsakalinga there is num. So ikarantaha Napumsakalingaha Atistri Shabdaha. What happens in Atistri Shabda is you have forms like this. So from Tritiya Vibhakti there will be forms, optional forms like Pullinga. So even though in all cases there should be two forms from Tritiya Vibhakti, only two forms are shown only where they differ. When there is a difference in forms, they show. For example, for Bhyam, for Bhis, etc., whether it is Pullinga or Napumsakalinga, it is the same. That is why two forms are not seen. Wherever there is a difference in form, you will have two forms. So, first thing, Atistri Shabdaha, Vari Shabdavate. It is like Vari. Paratvat Numa Iyang Vadhate. Everywhere, Num will overrule Iyang. So Iyang is not seen anywhere in the Napumsakalinga forms. Tritiyadishu Pullingavat Ekam Rupam. From Tritiya Vibhakti there will be one form like Pullinga, the Atistri in Pullinga, which means again like Hari Shabda. Since Atistri itself is like Hari, there will be one form like Hari Shabda. Osi Pareva Striyaha Iti Iyang Kumbadbhava Pakshe. When there is Kumbadbhava, there is os, you hear the yang, right? So in Pullinga, as we saw, in os there is nitya yang by striyaha, that is also heard here as in atistriyoho. So in napumsakalinga this is the only case where yang is heard in os and when it is kumbadbhava. The original napumsakalinga will get numagama, it becomes atistrinoho. Kumbadbhava pakshe osi pare yang bhavati. So nowhere else is yang heard in napumsakalinga. Is clear? That is where it should end. Our question is only that. Where is yang heard? In pullinga. In pullinga, os and au, and optionally in amanshas. Okay, the other forms we don't need to worry because it will be like the template word. So similarly here also, the only place where you hear yang is os in case of kumbadbhava. Okay. Any questions? I hope this much is clear because we have to go further forward. Strilinga, right? So, pullinge kim bhavati, strilinge kim bhavati, iti jnatam. Tadani, punaha strilinga, ati stri shabda, ikarantaha strilinga. The original stri shabda was stri ikaranta strilinga. Now, if you have ati stri, it will be like striyam atikranta. She who has excelled all other women. Striyam atikranta. Atistri iti ikaranta patipratipalikam. Now again it will be ikarantaha strilingaha atistri shabdaha. So what is the sadharana shabda for ikaranta strilingas? It is mati shabda. The general shabda for ikaranta strilingas will be mati shabda. So you will have to see, compare this atistri with mati and see where does it differ. Striyam tu prayena pumvat. So, it says in strilinga, mostly it will be like pullinga. Pullinga atistri. Okay. So, shati atistrihi. There is a difference. In pullinga, there was atistreen in shati because of tasmat satona. Atratu pullinga tvabhavat natvam nabhavati atistrihi iti bhavati. Sthrithvat mattvam nabhavati. Atistriya. Ta prateye pare. Atistri a. Itistite. Pullinge kim bhavati. Ango na striyam. Itterena. Astriyam. Nabhavaha bhavati. Atratu nabhavaha na sthrithilingatvat. Atistri a. Itistite. Striya ha itterena iyanga adeshe. Atistriya. Sthrithvat nabhavo nabhavati. So now, nitihasvashta, nitihasvantattva prayutto vikalpaha. So now, if you forget this, what is it? Till now, it is like pullinga word. Okay, so this is true. One form is like that, pullinga word. You will have gherniti and all that. But when you remember mati shabda, there also he said, mati shabdaha prayena harivat. He said, mati is like hari. The same difference he gave. Shasi matihi. In shas there is no natva. In ta there is no nabhava. So it becomes matihi and matya. So that was the major difference between mati shabda and hari shabda. In addition there was one more difference. When it is followed by nit pratyaya. Matyai mataye. Matyaha matehe. Matyam matau. You have two forms. Like one form is like hari shabda. In nit pratyayas. That is in nye, nasi, nas and ni. There is an additional form because of nadi samya. There is an optional nadi samya by niti hraswashta. Hitsu pratyayeshu pareshu hraswa ikarantam hraswa ukarantam strilingam api vikalpena nadi samyam prapnoti. Tena kim bhavati vikalpena nadi samyayam satyam tat prayuktani karyani bhavanti. Niti hraswashta atra api hraswaha asti hraswa ikaraha strilingaha. So you'll have a hrasvantattva prayuktaha nadisamya vikalpaha. So if we have nadisamya, then the forms would be like mati shabda. But wherever there is yan, so you have atistri a, annadhyaha iti adhagame, atashyati vridhav, atistri ai, idani ajaditvata striyaha iti iyangi, atistriyai. அதிஸ்திரியை அதிஸ்திரையே, லைக் மத்தியை மதையே, யூவில் ஹாவ் அதிஸ்திரியை அதிஸ்திரையே, அதிஸ்திரியாக அதிஸ்திரேஹே, அதிஸ்திரியாம் அதிஸ்திரௌ, there will be an additional form with nadi samya karya. That is the case. But now, Dikshita raises a question. Will it get nadi samya by iti hrasvascha? Iti hrasvascha ityanena nadi samya bhavati va iti prashnaha. Kimartham na bhavet iti cheta. If we look at the nadi samya prakarana, we have the first sutra is yustriyakhyau nadi. ஈதூதந்தௌ நித்யஸ்த்ரீலிங்கௌ நதீ சம்யௌ ஸ்தஹ. ஸோ ஈகாராந்த உகாராந்தாக நித்யஸ்த்ரீலிங்க சப்தாக அனேன சூத்திரேன நதீ சம்யாம் ப்ராப்னுவந்தி. அனந்தரம் ஏகம் சூத்திரம் அஸ்தி, திஸ் சூத்திர விச் வில் ஸ்டடி அ பிட் லேட்டர். நேயங் வங் ஸ்தானா வஸ்திரி யங் வங்கோஹு, சாரி ஈதூதந்தௌ நித்யஸ்த்ரீலிங்கௌ நதீ சம்யோஸ்தஹ நேயங் உமங் ஸ்தானாவஸ்தி விச் சேஸ் யங் உமங் ஸ்தானௌ இஃப் த வேர்ட் வில் கெட் யங் ஆர் உமங் ந இட் வில் நாட் ஹாவ் நதீ சம்யா எக்ஸெப்ட் ஸ்திரீ சப்தா சேத் யங் உமங்கோ ஸ்திதி அயோ தௌ ஈதூதௌ நதீ சம்யோ நஸ்தஹ இஃப் இட் இஸ் அன் ஈகாராந்த ஆர் உகாராந்த ஸ்திரீலிங்க இஃப் இட் ஹாஸ் அன் ஆப்ஷன் ஆஃப் கெட்டிங் யங் ஆர் உமங் இட் வில் நாட் ஹாவ் நதீ சம்யா எக்ஸெப்ட் ஸ்திரீ விச் மீன்ஸ் ஸ்திரீ சப்தா வில் ஹாவ் நதி சம்யா அதர் வேர்ட்ஸ் விச் கெட் இயங் ஆர் உவங் வில் நாட் ஹாவ் நதி சம்யா வாமி நேயம் உவங் ஸ்தானாவஸ்தி இது அனுவர்த்தத்தை இயங் உவங் ஸ்தானோ ஸ்திராக்கியோ யூ ஆமி வா நதி சம்யோ ஸ்தா திஸ் அகெயின் வி சீ லேட்டர் டோன்ட் வெரி டூ மச் இட் அகெயின் சேஸ் சச் வேர்ட்ஸ் ஃபார் தோஸ் விச் டூ நாட் ஹாவ் விச் ஹாவ் இயங் அண்ட் உவங் தே வில் கெட் அன் ஆப்ஷனல் நதி சம்யா இன் வாமி The first sutra says there is no nadi samya. Then he says it has an optional nadi samya in aam. Tadaha niti hrasvashta. Nit pratyaye pare. Yang vang sthanayohu vikalpena nadi samya bhavati. Hrasvashta. Hrasvaikarantasyapi. Hrasvaikara ukarantanamapi vikalpena nadi samya bhavati. So these are the four sutras which give nadi samya. Now we are dealing with Niti Hrasvashta. Okay. Now the question is, will this Astri come from Neyamvang Sthanavasthi? In Niti Hrasvashta, there is an Anuvrutti of Iyamvang Sthanav and Astri. Okay. So, Asmin Sutra, Astri Ityasya Anuvrutti hi Asti. Therefore, will Niti Hrasvashta apply for Astri, that is Atistri, where there is Stri Shabda, is the question. Is the question clear? Since this Astri is being taken as Anuvratti from Neyamvang Sthanavasthi to Niti Hrasvashta, will Niti Hrasvashta also say Astri, means other than Stri Shabda, Niti Hrasvashta will apply. Which means for Atistri Shabda, Niti Hrasvashta should not apply. Okay. So, will Niti Hrasvashta apply here or not? That's the question. Niti Hrasvashta says three shabda bhinnav. That is the point there. Okay. Is the question clear? The question is, will Atistri get an optional nadi samya by Niti Hrasvashta or not? Okay. The why is that not? Because since there is Astri, it should not get nadi samya. That's the question. So for that he says, there are actually two parts in Niti Hrasvashta. The first part is Iyamvang Sthanav, Stri Shabda Bhinnav, Nitya Stri Lingav, Eedutav. Eekaranta, Ookaranta Stri Lingas, Nitya Stri Lingas, which have the option of getting Iyam. For them, there is an optional Nadi Samya in Nit, is the first sentence. The second sentence is completely different. It just says, Hrasvau Ivarna Uvarnav Nadi Samyo Staha. Hrasvaikaranta Ukaranta Srilingas will get Nadi. This Astri is related only to the first part, where it is Ikaranta Ukaranta Nitya Srilingas and Iyamumang Sthanas. It is not related to Hrasva part. there are two separate parts in the sutra. So he says the astri, the nishedha for strilinga. Hello? Hello? Bhagadvayam. There are two parts to Nitihrasvashcha. Okay. So the first part says, Iduto Nityastrilingo Yamumang Sthano. For Ikaranta, Ukaranta, Nityastrilingas, which have Iyang or Umang, there a Stri, other than Stri, they will have an optional Nadi Samya when followed by Nit, is the first part. The second part is, Hrasva Ikaranta, Ukaranta, Strilingas will get an optional Nadisamya when followed by Nit. They are two separate parts. The Astri, that is saying the Stri Shabda will not come under this purview, will apply only for the first part. Okay. So that is why he says Stri Shabda Bhinno is included for the first. That is for Dirgha Ikaranta, Ukaranta, which have Iyang and Ubang, other than Stri. Means the first part will apply to all Dirgha Ikaranta, Ukarantas having Iyang Umang other than Stri. For second part, Astri does not apply. Okay, the Astri, even though there is Anuvritti, it applies only for the first part and not for the second. Therefore, Hrasvau Ivarna Uvarnau Nadi Samyostaha Ityatra Astri Iti Nishedhaha Nasti. So that's why Dikshita says, Astri Iti Yamumang sthanau ityasyaiva paryudasaha tatsambaddhasyaiva anuvritteh. Since Yamumang sthanau astri are being taken together, astri is a nishedha. It is negating the nadi samya only for, it is related only to the Yamumang sthanau, that part. That is dirgha strilinga, dirgha ikaranta, ukaranta, Yamumang sthana, that part. Only it negates. Dirghasya ayam nishedhaha natu hrasvasya. Therefore, astri will apply only to dirgha and not to hrasva. When you are taking the second part, hrasvau ivarna uvarnau niti pare va nadi samyostaha tatra tu astri iti nishedhaha nasti. So therefore, the hrasva part of it, the second part of it, will apply even to atistri shabda. So it will also have optional nadi samya. Nadi samya ayam satyam yatha mati shabde karyam tatha atrapi bhavati. Okay. So how do you arrive at that conclusion that astri applies only to the first half? So the first thing is by commentary also. The Yangvang sthano and astri are being taken together. They are being inherited as a group. So wherever Yangvang sthano is there only the astri, it comes related with Yangvang sthano. Because Stri Shabda is also Yamumang Sthana, he is saying wherever you are talking something about Yamumang Sthana, he says Astri. Other than Stri, Yamumang Sthana, Nitya Srilingas, etc. Okay. So for the second part, there is no question of Yamumang Sthana or Umang Sthana. It says only one thing, Hrasva Ikara Ukara. Therefore, Astri will not apply there. It applies only where Yamumang Sthana is there, which is the first part of Nitya. Therefore, the Hrasva Ikaranta Strilinga Atistri Shabda will get an optional Nadi Samya when in Nit Pratyas by Niti Hrasvascha. Tada kim bhavati? Atistriyai Atistriye. This is not Atistriye, sorry, this should be Atistraye, like Mataye. Atistriye, Atistraye. Atistriyai Atistraye. Atistriyaha Atistrehe. Like you have Matyai Mataye, Matyaha Matehe. What is the difference between Matyai and Atistriyai? Wherever in Mati Shabda you have Iko Yanachi, whereas in Atistri you will have Kriyaha Itinena, Iyang. Instead of Yan, you will have Iyang here. Atistriyaha Atistrehe. Atistrinam. Nutipare Kimapinasti. Atistriyam Atistrau. Okay. So in four cases, Nitsu Pratyayeshu, Nadi Samya. Vikalpena nadi samya bhavati ityataha rupadvayam. Ekasmin rupe yang bhavati, anyasmin rupe yang na bhavati. So ikaranta strilingaha atistri shabdaha katham bhavati.
मतिस्त्रिशब्द मतिशब्दवत्
इट इज लाइक मति यत्र मतिशब्दे यण् भवति तत्र अतिस्त्रिशब्दे स्त्रियाः इत्यनेन इयं भवति सो वेर एवर देर इज यण् इन मति देर यू विल हैव यंग इन दिस नाउ यू हैव औं इन औ यू विल हैव यंग यू हैड पूर्व सवर्ण दीर्घ इन मति अदर देन दैट यू हैव ओवररूलिंग दैट यू हैव यंग हियर अमीशसि परे वांशसोः इति विकल्पेन इयं भवति So these are the only two special cases where it is not like mati shabda. Everywhere else, it is like mati shabda with the yan being replaced by yang. For example, you have matyai where you had yan, here you have yang. Matyoho, you had yang in yan in mati shabda, here you have yang. Okay. So atistriyai, atistriyaha, atistriyaha, atistriyam, atistriyoho. Sarvatra, yatra mati shabde yan bhavati, तत्र अतिस्त्रिशब्दे स्त्रियाः इति इयं भवति दट् इस् द फस्ट् पॉइंट अदर् देन् दट् औ प्रत्ययपरे मतिशब्दस्य प्रथमयोः पूर्वसवर्णः इत्यनेन पूर्वसवर्णदीर्घो भवति अतिस्त्रिशब्दस्य तु स्त्रियाः इत्यनेन इयं भवति अमि शसि च मतिशब्दस्य एकमेव रूपम् अमि पूर्वरूपं भवति शसि पूर्वसवर्णदीर्घः भवति अतिस्त्रिशब्दस्य तु रूपद्वयम् एकस्मिन् रूपे इयं भवति अतिस्त्रियम् अतिस्त्रियः अपरस्मिन् रूपे मतिशब्दवत् रूपम् ओके होप् दिस् इस् क्लियर् नौ इफ् वि गो बेक् टु एण्ड् सी वाट् इस् द डिफ़रेन्स् एस् अ होल् ओके द क्वेश्चन बै प्रिया पदाङ्गाधिकारे तस्य च कृदन्तस्य च ट्रू दट् इस् वै वि आर् डूयिङ्ग् आल् दीस् डिस्कशन् इस् बिकास् आफ़् दट् पदाधिकारे अङ्गाधिकारे तस्यापि भवति तदन्तस्यापि भवति दट् इस् वै द डिस्कशन् अरोस् इफ् दिस् वर्न्ट् देर् इफ् इट् वुडन्ट् अप्लै फार् तदन्त देन् देर् वुड् बि नो क्वश्चन् आफ् इट् बीङ्ग् अप्लैङ्ग् फार् समास सत्यं तदन्तस्य भवति कदा भवति यदा प्राधान्यमस्ति तदा भवति When it is pradhana, always it happens. When it is upasarjana, it does not occur always. So where it occurs and where it does not is the question. The root of that question is in this. Padanga adhikare tasyaapi bhavati, tadantasyaapi bhavati. Yada tadantasya bhavati itki uchyate, sarvatra bhavati va nava iti prashnaha. Prashne sati idashi tatsa. Now, what's the whole? Stri shabdasya kim bhavati? अजादिषु विभक्तिषु स्त्रियाः इति इयं भवति अमीशसि च वांशसोः इत्यनेन विकल्पेन इयं भवति शेषं गौरीवत् इन् अदर् केसस् स्त्रीशब्द इस् लैक् ईकारान्तसाधारणशब्द विच् इस् गौरी ओन्ली इन् अजादि विभक्ति इट् हेज़् इयम् इन् अम् अण्ड् शस् इट् हेज़् एन् आप्शनल् इयम् इफ् यु गो टु अतिस्त्रिशब्द विच् इस् पुल्लिङ्ग तत्र कुत्र इयं भवति औङि ओसि च नित्यम् इयं भवति इन् औ अण्ड् ओस् यु हेव् कम्पल्सरी इयं वै स्त्रियाः अगेन् अमिशसि च वांशसोः इति विकल्पेन इयं भवति शेषं हरिवत् इन् आल् अदर् केसस् इट् इस् लैक् अ साधारण इकारान्तपुल्लिङ्गशब्द विच् इस् लैक् हरि स्त्रीलिङ्गे किं भवति इति स्त्रीशब्दस्य इति चेत् अगेन् औङि ओसि च स्त्रियाः इति नित्यम् इयं भवति अमिशसि वांशसोः इति विकल्पेन इयं भवति विच् इस् द सेम् एस् ए पुल्लिङ्ग दट् इस् वै हि सेड् स्त्रियां तु प्रायेण पुंवत् In addition, I don't see why you take ta. Ta also gets iyam, but nye ngasi nishu nadistva pakshe sriyaha iti nityam iyam. So in ta and in nye ngasi ni when there is nadisamya, there is a compulsory iyam adesha by sriyaha. This is addition for strilinga. Shesham mati vat. All other cases it will be like mati. If we go to Napumsakalinga, Sarvatra Numa Iyang Vadhyate. There is no Iyang at all because Numagama overrules Iyang. But Pumvadhava Pakshe, when there is an optional Pumvadhava, Os Pratyaye Pare, Kriyaha Iti Nityam Iyang. So Os is the only place where you hear Iyang in Napumsakalinga when there is Kumbhadbhava. Shesham Varivat. All other forms will be like Vari. Kumbhadbhava Pakshetu Haridabhava. Okay. So it was pretty heavy discussion. Any questions? You can go through this again and then later so that you... It is not possible to grasp everything in the first attempt. So it's just if you have listen to this now, you'll have the samskara. So the shastrartha becomes easier later. That is the nice thing about shastra. When you actually hearing some tough thing, we feel like, okay, you don't understand anything, which is true. But as you move ahead, the samskara will make things easier. And these things will become clear only after we go ahead. I am actually understanding this only now when I sit to teach. When my teacher taught me this, it is like completely blank. So don't worry if parts of it are not very clear. You can listen to this again since we have this recording facility. And you can ask whenever you have any questions. Okay. Any questions now? Actually, the next one would be Shri Shabda, Ikaravdha Sthrilingaha. Shri will again be different from the original Gauri and Lakshmi because Shrayanti Enam iti Shrihi, which is a Kvibanta, Shri Dhatohu, Kvibanta Rupam, Prakritehe Dirgha Vidhiyate, Tena Dhatohu Ikaraha. This ikara is not nyanta, it belongs to a dhatu. Okay? Dhatoho ayam ikaraha. Tena kim bhavati? Anyantatvat. Since this is not nyanta, there is no suloka. Shrihi, yatha lakshmihi, tatha shrihi, iti visargaha shruyate. Anyantatvat na sulopaha, there is no suloka. So it is shrihi. Shriyau, shriyau iti sthite. Achishnu Dhatu Bhumam Yvor Iyam Mano. If you remember this sutra, we met this long ago. Achi Ajadav Vibhakto Parataha Shnu Dhatu Bhumam Yvoho Ikara Ukara Yoho Dhatoho Yah Ikaraha Ukaroga Tasya Iyam Uvang Adesho Bhavataha Ajadav Prateye Parataha. So this overrules Prathamayoh Purva Savamadikha. We have Shri Au Itishthite Shri Yau Iti bhavati. Again, Shri as Shriyaha. Sarvatra. Since it is a dhatu, the ikara belongs to the dhatu. Speciality is wherever you have ajadi vibhakti, there would be yang adesha. So there is Shrihi, Shriyau, Shriyaha. Next question is He Shri Su Ityukti. Will it get Nadi Samya or not? That's the question. So I think we will see that in the next class. Continue with Shisham. Enachar Kumam Naya Madhiyam Vimaheshwara Dutnam Vyakaranam Dutkan Tasmai Paninaye Namaha Akshikaram Varajim Bhashakaram Patan Vinim Paninim Sutrakaram Chakrana Tosmin Nitrayam Munitrayan Namaskritya Tadukti Shparibhavisa Vyakarana Siddhanta Kaumudiyam Virachyate.